ब्रह्मरूपमादिमध्यशेषसर्वभाषकम् भावषट्कहीनरूपनित्यसत्तमध्ययम् वङ्मनौति गोचरं च नेति नेति भावितम् तं नमामि देव देव रामकृष्णमीशरम् आदितेयभीहरं शुरारिदैत्यनाशकम् शाहशिष्टकामदं महीशुभारहारकम् सत्मरूपतत्तकं युगे युगे च दर्शितम् तं नमामि देव देव रामकृष्णमीशरम् सर्वभूतसर्गकर्मसूत्रबन्धकारणम् येन कर्म पापपुण्यतारतम्यसाधनम् बुद्धिवाशसाक्षिरूपसर्वकर्मभासनम् तं नमामि देव देव रामकृष्णमीशरम् सर्वजीवपापनाशकारणं भवेशरम् शिकृतं च गर्भवासदेवधानमीदृशम् यापितं सलीलया च येन दिव्यजीवनम् तं नमामि देव देव रामकृष्णमीशरम् तुल्यलोष्ट्रकाञ्चनं च हेयनेऽधिगतम् स्त्रीषु नित्यमातृभावशक्तिरूपभावकम् येन भक्तिभुक्तिमुक्तिशुद्धबुद्धिदायकम् तं नमामि देव देव रामकृष्णमीशरम् सर्वधर्मगम्यमूलसत्ततत्तदेशकम् सिद्धसर्वसम्प्रदायसम्प्रदायवर्जितम् सर्वशास्त्रमर्मदर्शि सर्वविन्निरक्षरम् तं नमामि देव देव रामकृष्णमीशरम् चारुदर्शकालिका सुगीतचारुगायकम् कीर्तनेषु मत्तवच्चनित्यभावविह्वलम् शुभदेशदायकं हि शोकतापवारकम् तं नमामि देव देव रामकृष्णमीशरम् पादपद्मतत्तबोधशान्तिसौख्यदायकम् सत्यचित्तभक्तसूनुनित्यवित्तवर्धकम् दम्भिदर्पदारुणन्तनिर्भयं जगद्गुरुम् तं नमामि देव देव रामकृष्णमीशरम् पञ्चवर्षबालभावयुक्तहंसरूपिणम् सर्वलोकरञ्जनं भवाब्धिसङ्गभञ्जनम् शान्तिशोकसन्मजीवजन्मभीतिनाशनम् तं नमामि देव देव रामकृष्णमीशरम् धर्महानहारकं तद्धर्मकर्मवारकम् लोकधर्मचारणं च सर्वधर्मकोविदम् त्यागिकेहि सर्वनित्यपावनं हृपङ्कजम् तं नमामि देव देव रामकृष्णमीशरम् तं नमामि देव देव रामकृष्णमीशरम् तं नमामि देव देव रामकृष्णमीशरम्।
ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः।